इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचकः पुनीत त्रिपाठी। अथ वार्ताः। लोकसभा निर्वाचनस्य मतगणना अद्य प्रातः 8 वादनात् आरप्स्यते। आन्ध्रप्रदेशे ओडिशायां च विधानसभा निर्वाचनानां मतगणना, विभिन्न राज्येषु विधानसभा निर्वाचनानां उपनिर्वाचनानां चापि मतगणना अद्य भविष्यति। मतगणनायाः सर्वाणि सज्जतानि जातानि। आकाशवाणी अद्य लोकसभा निर्वाचन परिणामानां तथा च विधानसभा निर्वाचनानां यथासमयं सूचनाः प्रदातुं विस्तृत व्यवस्था कृतास्ति। इदं प्रातः 7 वादनतः सायं 10 वादनपर्यन्तं लोकनिर्णय 24-2000 इति 15-होरात्मकं अविराम विशेष द्विभाषिक कार्यक्रमं भविष्यति। आकाशवाणी वार्तायाः संवाददातृणां विस्तृतं जालं देशस्य प्रत्येकस्मिन् कोणात् सजव प्रसारणं करिष्यति। कार्यक्रमे प्रवृत्ति परिणामानां विषये विभिन्न राजनीतिक दलानां विशेषज्ञैः नेतारैः च सह अन्वेषणात्मक चर्चापि भविष्यति। आकाशवाणी गोल्ड प्रवाहिकायाम् अपि च आकाशवाण्याः अन्यासु प्रवाहिकासु यूट्यूब प्रवाहिकादिषु च एषः कार्यक्रमः प्रसारितः भविष्यति। आकाशवाण्याः क्षेत्रीय वार्ताः अपि मतगणना दिने विशेष कार्यक्रमं प्रसारयिष्यन्ति। दूरदर्शनेन अद्य मतगणना दिवसस्य विशेष व्यवस्थापि कृता अस्ति। प्रसार भारत्याः मुख्य कार्यकारी अधिकारिणा गौरव द्विवेदिना उक्तं यत् डीडी न्यूज इति वाहिनी प्रातः 6 वादनात् आरभ्य नगरस्य विजय चतुष्पथात् स्वस्य विशेष कार्यक्रमस्य आरम्भं करिष्यति। मुख्य निर्वाचनायुक्तेन राजीव कुमारेण कथितं यत् लोकसभा निर्वाचने 64 कोट्यधिकैः मतदातृभिः निज मताधिकारस्य प्रयोगं कृत्वा कीर्तिमानं संस्थापितम्। ह्यः नवदिल्ल्याम् एकस्मिन् संवाददात्री सम्मेलने श्रीकुमारः अवोचत् यत् सर्वेषां G7 देशानां अमेरिका, ब्रिटेन, फ्रांस, जर्मनी, इटली, जापान, कनाडा इत्येतेषां मतदातृणां संख्यायां सार्धैक गुणम् अधिकमस्ति। असौ कथितवान् यत् एतस्मिन् लोकसभा निर्वाचने 31 महिला मतदात्र्यः मतदानं कृतवत्यः। सर्वोच्चन्यायालयेन ह्यः केन्द्राय निर्देशः दत्तः यत् ग्रीष्मकालस्य अतिशयातापस्य कारणेन च राष्ट्रिय राजधान्यां जलाभावं निवारणाय दिल्ली, हरियाणा, हिमाचल प्रदेश राज्यैः सह उच्च यमुना नदी मण्डलस्य आपत्कालिकोपवेशनं भवतु। न्यायाधीशयोः पीके मिश्र, केवी विश्वनाथनयोः च अवकाशपीठेन जून मासस्य 5मे दिनांके उपवेशनं कारयितुम् आदेशः प्रदत्तः। पीठिका जून मासस्य 6 दिनांके प्रकरणस्य समय निर्धारणं कृत्वा अवदत् यत् सभायाः कार्यवृत्तं, हितधारक राज्यैः गृहीतव्यानि परामर्शः पदानि च अभिलेखे स्थापनीयम्। गतसप्ताहे दिल्ली सर्वकारेण प्रस्तावितायाः याचिकायाः श्रवणं न्यायालयः कुर्वन् आसीत्। हिमाचल प्रदेशेन प्रदत्तं अतिरिक्तं जलं वजीराबाद बांध माध्यमेन मुक्तं कर्तुं हरियाणा राज्याय निर्देश आसीत्। तथा च आईसीसी 20-प्रति-20 क्रिकेट विश्व चषक प्रतिस्पर्धायां अफगानिस्तान युगांडा दलयोः मध्ये गुयाना स्थितस्य प्रोविडेंस क्रीडांगणे क्रीडा सम्प्रति प्रचलति। गतरात्रौ न्यूयॉर्क नगरस्य नासाउ काउंटी अन्तर्राष्ट्रिय क्रिकेट क्रीडांगणे दक्षिणाफ्रिका दलेन श्रीलंका दलं 6 स्तोभैः पराजितम्। इति वार्ताः।